सर्वेषां संस्कृतकक्षायां पुनः एकवारं स्वागतम्. प्रथमतया अहम् एकं श्लोकं वदामि. वस्त्रेण वपुषा वाचा विद्यया विनयेन च वकारैः पञ्चभिर्युक्तः नरो भवति पूजितः. इत्युक्ते अत्र वस्त्रेण वपुषा वाचा विद्यया विनयेन च विनयेन अपि च वकारैः पञ्चभिः. इत्युक्ते अत्र कानिचन पदानि तृतीयविभक्त्यन्तरूपाणि अस्मिन् श्लोके दत्तानि. अत्र एतेषां पदानाम् आदिमवर्णः वकारः. वकारादिपदानि सन्ति. अस्य अर्थः कः इति चिन्तनं कुर्मः चेत्, यः वस्त्रेण, प्रथमं पदं, यः सम्यक् वस्त्रधारणं करोति, अपि च वपुषा इत्युक्ते यस्मिन् शरीरसौन्दर्यमस्ति, अपि च वाचा इत्युक्ते यः सम्यक् भाषणं करोति, विद्यया यस्मिन् विद्या अस्ति, अपि च विनयेन यः विनयेन सह व्यवहारं जीवने व्यवहारं कर्तुं शक्नोति, सः सर्वदा पूजितः भवति. अत्र पूजितः इत्युक्ते सर्वे तस्य पूजां करोति इति न अर्थः. इत्युक्ते सर्वे जनाः तस्य आदरं कुर्वन्ति. यः एतैः पञ्चभिः वकारैः युक्तः पुरुषः पूजितः भवति इति अर्थः. किमर्थम् इमं श्लोकं पठितवती इत्युक्ते, अत्र अस्माकम् अद्यतनविषयः अस्ति तृतीयाविभक्तिः. गते सप्ताहे एव अयं विषयः आरब्धः. अद्य तृतीयाविभक्तेः विषये इतोपि किञ्चित् ज्ञास्यामः. अत्र किमर्थम् इत्युक्ते, कानिचन करपत्राणि गते सप्ताहे वयं न समापितवन्तः. कानिचन करपत्राणि असम्पूर्णानि इत्युक्ते अस्माभिः न समापितम्. अतः अद्य तानि करपत्राणि एकवारं दृष्ट्वा अग्रे अभ्यासपुस्तके इतोपि किमस्ति इत्यस्य चिन्तनं कुर्मः. उत्तमं. प्रथमतया अत्र कादम्बरी भगिनी, अत्र सर्वे प्रथमं करपत्रं पश्यन्तु. अत्र गृहिण्योः सम्भाषणं नाम्ना एकं करपत्रमस्ति, तत् करपत्रं पश्यन्तु. कादम्बरी भगिनी अपि च सुचित्रा भगिनी, अत्र करपत्रम्, अत्र सम्भाषणस्य शीर्षिका अस्ति गृहिण्योः सम्भाषणम्. अतः अधुना कादम्बरी भगिनी अपि च सुचित्रा भगिनी एतत् सम्भाषणं पठन्तु.
मालती, अहं मालती.
हा, मालती अथवा शारदा, सर्वे प्रथमं करपत्रं पश्यन्तु. पठतु भगिनि.
गृहिण्योः सम्भाषणं. मालती, शारदे, किं करोति भवती?
कादम्बरी भगिनी पठतु द्वितीयं वाक्यं. पृथः अस्ति वा करपत्रं भगिनी? नो चेत् अत्र उमाशङ्करमहोदय भवान् पठतु.
ऐ एम् जस्ट् नौ डौन्लोडिङ्ग्.
अस्तु भगिनी, भवती एव पठतु नो चेत्.
शारदा, आहो मालती, आगच्छतु, उपविशतु, कुशलीनि किम्? मालती, आम्, सर्वं कुशलं, भवती स्वकार्यं करोतु, अहं तत्रैव अन्तः आगच्छामि. शारदा, मम पाकः न समाप्तः, अतः भोजनार्थं बान्धवाः आगच्छन्ति, अतः विशेषपाकः. मालती, तर्हि किं किं करोति शारदा आलुकेन कव्तिं करोमि
भगिनी अत्र पदमस्ति क्वथितम्
क्वथितम् आलुकेन क्वथितं करोमि
सुचित्रा भगिनी अधुना कादम्बरी भगिनी पठति
बहु मरीचिकाः सन्ति खलु मरीचिकाया मरीचिकया किं करोति
सुचित्रा भगिनी भवती पठतु अधुना शारदायाः अत्र शारदा किं वदति अधुना
शारदा मालति बहु मरि ओके शारदा लघु मरीचिका कटु कटुः महामरीचिकाया भर्जं करोमि
तैः व्यञ्जनं करोति
भगिनी अत्र पदमस्ति व्यञ्जनं व्यजनं पदमपि अस्ति अत्र पदमस्ति व्यञ्जनं व्यजनम् इत्युक्ते विद्युत् व्यजनम् इत्युक्ते फ़्यान् इति वदामः परन्तु अत्र व्यञ्जनम् इति पदमस्ति तस्य अर्थद्वयमस्ति इत्युक्ते व्यञ्जन परन्तु अस्मिन् वाक्ये व्यञ्जनम् इत्युक्ते करी वदतु भगिनि अधुना
विन्दिनकैः व्यञ्जनं करोमि ऊर्वारुकेण किं करोमि इति चिन्तयामि
ऊर्वारुकं गृञ्जनकं च योजयित्वा कोपं कोशम्बरी करोतु कोशम्बरीं करोतु भोः बहु स्वादिष्टं भवति
शारदा तथैव करोमि पायासमीपि करोमि पर्पटाम् अपि भर्जयामि मम पतिः बहु इच्छति
अहमपि किञ्चित् साहाय्यं करोमि
मास्तु भोः भवती उपविशतु मया सह सम्भाषणं करोतु अहं सर्वं करोमि
तर्हि अहं सर्वेषां रुचिं पश्यामि सर्वं भवती करोतु
उत्तमम् इत्युक्ते अत्र गृहिण्योः सम्भाषणम् अस्ति कादम्बरी भगिनी अवगतं वा अत्र कानिचन वाक्यानि सन्ति तेषाम् अर्थः कः भवती किञ्चित् अवगतवती वा
किञ्चित् भगिनि
मिलित्वा अधुना एकमेकं वाक्यं स्वीकृत्य पङ्क्तिशः पश्यामः प्रथमं वाक्यं पठतु
शारदे किं करोति भवती
किं करोति भवती भवती जानाति अवगतवती अत्र शारदे इति दत्तमस्ति किमर्थं परन्तु अत्र शारदा इति पदमपि अस्ति अत्र किमर्थं शारदे इति लिखितमस्ति तस्य रूपं किं
सम्बोधनम्
उत्तमम् इत्युक्ते अत्र मालती वदति शारदे भवती किं करोति तदा शारदा किं वदति उत्तरं किम्
अहो मालति आगच्छतु उपविशतु
अत्रापि अत्र अत्र पश्यतु मालति इति पदमस्ति मालति इति पदमपि सम्बोधनं सम्बोधनरूपम् अत्र ह्रस्व ईकारः अस्ति यदि दीर्घ ईकारः अस्ति चेत् मालती इति अस्ति चेत् प्रथमाविभक्त्यन्तरूपं परन्तु अत्रापि सम्बोधनरूपं दत्तमस्ति अपि च कुशलिनी किं भवती कुशलिनी किम् इति सा उक्तवती अत्र स्त्रीलिङ्गे भवती कुशलं वा इति अर्थः कुशलिनी इति पदमस्ति. स्त्रीलिङ्गे कुशलिनी इति वदामः, परन्तु पुंलिङ्गे वदामश्चेत् किं वदामः? भवती जानाति वा?
अहं न जानामि.
कोऽपि जानाति वा अत्र कक्षायां? सुचित्रा भगिनी जानाति
वा? कुशलः.
अत्र पुंलिङ्गे वदामश्चेत् कुशली इति भवति. कुशली इति पदं नकारान्तपदं, परन्तु वयं न जानीमः, इदानीं पर्यन्तं वयं न पठितवन्तः, परन्तु हलन्तपदं कुशलिन् इति प्रातिपदिकं, तस्य प्रथमविभक्त्यन्तरूपं कुशली. अत्र कुशलिनी इति दत्तमस्ति, स्त्रीलिङ्गम्. अत्र शारदा इति मालतीम् उद्दिश्य वदति, अतः भवती कुशलिनी किम् इति उक्तवती. तदा किम् अभवत् भगिनी? पठतु तृतीयं वाक्यम्.
अहं सर्
आम् आम्
आम् सर्वं कुशलं भवती स्वकार्यं करोतु, अहं तत्रैव अन्तः आगच्छामि.
भवती स्वकार्यं करोतु, अहम् अन्तः आगच्छामि. तदा मालती किं कुर्वती अस्ति? अत्र शारदा गृहे पाकं कुर्वती अस्ति, अतः मालती वदति भवती यत् कार्यं कुर्वती अस्ति तदेव करोतु, अहम् अन्तः आगन्तुमिच्छामि इति सा वदति. अत्र तत्रैव इति पदमस्ति, तस्मिन् पदे पदद्वयमस्ति. जानाति वा तत्रैव? ऊहां करोतु. अत्र अग्रे गत्वा वयं पठिष्यामः, परन्तु अत्र वदतु.
तत्र एव
सुन्दरं जानाति भवती, उत्तमं. तत्र योगः एव तत्रैव इति भवति. अग्रे गत्वा वयं पठिष्यामः. वृद्धिसन्धिः इति वदामः, तत्रैव इति भवति. तदा शारदा वदति, मम पाकः न समाप्तः, अधुना अहं पाकं कुर्वती अस्मि, इदानीं पर्यन्तं मम पाकः न समाप्तः, अद्य भोजनार्थं बान्धवाः आगच्छन्ति, अतः अहं विशेषपाकं कर्तुमिच्छामि. अवगतं वा भगिनी एतत् वाक्यम्? तदा सा किं पृष्टवती? मालती किं पृच्छति अधुना?
तर्हि किं किं करोति
इत्युक्ते पाकविषये भवती किं किं पाकं कर्तुमिच्छति, भवती अधुना भवती किं करोति इति सा पृष्टवती. तदा शारदा वदति, मम पार्श्वे अत्र आलुकानि सन्ति, अपि च कूष्माण्डः अस्ति, तेन आलुकेन अहं क्वथितं कर्तुमिच्छामि. आलुकेन क्वथितम्, आलुकम् इत्युक्ते किं भगिनि वदतु? आलुकं पोटेटो. अत्र आलुकेन इति उक्तमस्ति, किमर्थम्?
With potatoes.
With potatoes. इत्युक्ते अत्र तृतीयान्तं रूपं दत्तमस्ति, आलुकेन क्वथितं करोमि. क्वथितम् इत्युक्ते साम्बार्. आलुकेन क्वथितं करोमि, अपि च कूष्माण्डेन तेमनं करोमि. कूष्माण्डः इत्युक्ते किम्? दृष्टवती वा? भवत्याः पार्श्वे शब्दकोशः अस्ति वा? शब्दकोशं पश्यामश्चेत् एतेषां पदानाम् अर्थं सुलभतया अवगन्तुं शक्नुमः. अत्र कूष्माण्डः इत्युक्ते पम्प्किन्. कूष्माण्डेन तेमनं करोमि. तेमनम् इत्युक्ते अहमपि सम्यक् न जानामि, अहं चिन्तयामि रसं वा अथवा किमपि सास् वा चट्नि वा किमपि सा कर्तुमिच्छति. कूष्माण्डेन तेमनं करोमि आलुकेन क्वथितं करोमि. अपि च इतोपि अत्र शाकाः के के सन्ति? सा किम् उक्तवती अत्र? बहु मरीचिकाः सन्ति खलु इति वदतु वदतु.
बहु मरीचिकाः सन्ति खलु, मरीचिकया किं करोति?
इत्युक्ते तत्र बहवः मरीचिकाः सन्ति, सा पश्यति, मालती पश्यति, तदा तदर्थं सा वदति अत्र बहवः मरीचिकाः सन्ति. भवती किं कर्तुमिच्छति मरीचिकया? अद्य किं पाकं कर्तुमिच्छति तेषां योजनेन इति सा पृष्टवती. तदा शारदा किं वदति?
लघुमरीचिका कटुः महामरीचिकया वर्जं करोमि.
अत्र लघुमरीचिका मरीचिकाः अपि सन्ति, महामरीचिकाः अपि सन्ति. लघुमरीचिका इत्युक्ते हाट् पेपर्, अपि च महामरीचिका इत्युक्ते बेल् पेपर्. अत्र सा उक्तवती महामरीचिका कटुः, न लघुमरीचिका कटुः, महामरीचिकया भर्जं करोमि. अत्र भर्जम् इत्युक्ते आङ्ग्लभाषायां किं वदामः? फ्रै, फ्रै इति वदामः. महामरीचिकया भर्जं करोमि. अत्र पश्यतु, पदं पश्यतु, महामरीचिकया. ऊहं कर्तुं शक्नोति वा प्रथमान्तं पदं किम्?
तृतीया विभक्ति.
अत्र तृतीया विभक्ति अन्तरूपम् अस्ति. प्रथमान्तं रूपं किं भवितुमर्हति? अत्र महामरीचिकया इति अत्र लिखितमस्ति. प्रथमान्तं रूपम् अत्रैव दत्तमस्ति. वदतु.
मरीचिकः.
महामरीचिका इति भवति. इत्युक्ते सा शारदा महामरीचिकया भर्जं कर्तुमिच्छामि अद्य इति सा उक्तवती. भर्जम् इत्युक्ते फ्रै. अपि च अग्रिमं वाक्यम्. वदतु भगिनि अग्रिमं वाक्यं किम्? सुचित्रा भगिनी भवती वदतु अग्रिमं वाक्यं किम्? अस्ति वा कोऽपि?
अस्ति. कैः व्यञ्जनं करोति?
कैः व्यञ्जनं करोति? कैः व्यञ्जनं करोति? अत्र कैः इति पदं दत्तमस्ति. जानाति वा भगिनि तस्य रूपं किम्?
कैः वित् वाट् तृतीया
इत्युक्ते तृतीया विभक्ति. अपि च वचनं किम्?
वचनं
बहुवचनं. बहुवचनं अत्र किं किम् इति पदस्य बहुवचनरूपं कैः अथवा कः इति पदस्य बहुवचनं, तृतीया बहुवचनं अपि कैः एव. तदा मालती वदति कैः व्यञ्जनं करोति? व्यञ्जनम् इत्युक्ते करि. वदति वदतु वदतु.
विण्डिनकैः व्यञ्जनं करोमि, ऊर्वारुकेन किं करोमि इति चिन्तयामि.
अत्र विण्डिनकैः इति पदम् अपि तृतीया विभक्ति बहुवचनान्तरूपम्. अहं विण्डिनकैः व्यञ्जनं करोमि अद्य. किमर्थं चेत् अत्र बान्धवाः आगच्छन्ति, अतः विशेषपाकं कर्तुमिच्छामि. विण्डिनकैः व्यञ्जनं करोमि अत्र विण्डीनकम् इति नपुंसकलिङ्गपदं जानाति वा भगिनि? विण्डीनकम् इत्युक्ते
किम्?
ओक्रा. उत्तमम्. हा उत्तमम् उत्तमम्. अपि च अत्र द्वितीये वाक्ये उर्वारुकेण इति दत्तमस्ति. उर्वारुकेण इति पदमपि तृतीयान्तं रूपं, तत्र प्रथमाविभक्त्यन्तरूपम् उर्वारुकम्. अपि च अत्र उर्वारुकेण इति तत्र मूर्धन्यणकारः अस्ति, किमर्थम्? रेपः अस्ति इति कारणतः उर्वारुकेण इति दत्तमस्ति. अत्र उर्वारुकानि सन्ति, तेषां योजनेन सा पृष्टवती उर्वारुकेण किं करोति भवती, अहं किं करोमि इति चिन्तयामि इति शारदा वदति. अग्रिमवाक्यं वदतु.
उर्वारुकं ग्रञ्जनकं च योजित्वा कोशम्बरीं करोतु भोः, बहु स्वादिष्टं भवति.
अत्र वयं पूर्वमेव पठितवन्तः च इत्यस्मिन् विषये. अत्र उर्वारुकानि सन्ति, अपि च गृञ्जनकं. गृञ्जनकम् इत्युक्ते अहं चिन्तयामि, गृञ्जनकम् इत्युक्ते क्यारेट्स्, शाकविशेषः. एते सर्वे अपि अत्र उर्वारुकम् एकः शाकविशेषः, गृञ्जनकं तदपि अन्यः शाकविशेषः. उर्वारुकम् अपि च गृञ्जनकं योजयित्वा इत्युक्ते मिलित्वा अहं कोशम्भरीं करोमि. कोशम्भरीम् इत्युक्ते तत्र किमपि सालड् वा तथा अहं चिन्तयामि. तदपि एकः पाकविशेषः, कोशम्भरीं करोतु भोः इति मालती वदति. बहु स्वादिष्टं भवति. अत्र भगिनी स्वादिष्टम् इति पदमस्ति, तस्य अर्थः कः?
टेस्टि.
टेस्टि, उत्तमं. स्वादु, स्वादु इत्युक्ते टेस्टि. बहु स्वादिष्टं भवति. द्वयोर् मेलनेन उर्वारुकम् अपि च गृञ्जनकं तयो च योजयित्वा कोशम्भरीं करोतु इति सा वदति. अनन्तरं तथैव करोमि, पायसमपि करोमि, अपि च पर्पटान् अपि भर्जयामि. पर्पटान् इति पदस्य अर्थः कः भगिनि
वदतु? पापड्.
पापड्, उत्तमम्. अत्र क्रियापदं पश्यतु, नूतनं क्रियापदं भर्जयामि, भर्जनं. वदतु, भर्जते
इत्युक्ते फ्रै.
पर्पटान् भर्जयामि, मम पतिः बहु इच्छति, अतः पर्पटान् भर्जयामि. अहमपि किञ्चित् सहायं करोमि किम् इति मालती वदति. तदा शारदा किं वदति?
मास्तु भोः, भवती उपविशतु, मया सह सम्भाषणं करोतु, अहं सर्वं करोमि.
सा वदति भवती अत्रैव तिष्ठतु, केवलम् उपविशतु, साहाय्यं न अपेक्षितं, केवलं मया सह सम्भाषणं करोतु, तावदेव पर्याप्तम्, अहं सर्वं कर्तुं शक्नोमि इति शारदा वदति. अत्र मया सह इति पदमस्ति. वयं पूर्वं अत्र तृतीयाविभक्तेः विषये वयं ज्ञातवन्तः. अत्र यत्र यत्र उपकरणमस्ति तत्र तृतीयाविभक्तेः उपयोगं कुर्मः. अपि च कानिचन उपपदानि सन्ति चेदपि तृतीयाविभक्तेः उपयोगं कुर्मः, यथा सः, साकं, सार्धं, समम्, अपि च विना. एतानि पदानि उपपदानि सन्ति चेत् तत्रापि तृतीयाविभक्तेः उपयोगं कुर्मः. इत्युक्ते तत्र उपपदतृतीया इति वदामः. अस्मिन् वाक्ये सः इति पदमस्ति इति कृत्वा मया सह सम्भाषणं करोतु, तत् पर्याप्तं. आवश्यकं साहाय्यस्य साहाय्यं न अपेक्षितम् इति सा वदति. अनन्तरम् अन्तिमं वाक्यं, तर्हि अहं सर्वेषां रुचिं पश्यामि, सर्वं भवती एव करोतु इति मालती वदति. अत्र भगिनी रुचिं पश्यामि इति पदमस्ति, पदं प्रथमाविभक्त्यन्तरूपम् अस्ति रुचिः, परन्तु अत्र किमर्थं रुचिम् इति दत्तमस्ति?
सर्वं रुचिं टेस्ट् द्वितीयाविभक्ति,
द्वितीयाविभक्ति. किमर्थं द्वितीयाविभक्ति?
पदानि सर्वं पदानि रुचिम् ओके.
अत्र किमर्थम् इति अत्र अहं वदामि. अत्र किमर्थं द्वितीयविभक्त्यन्तरूपम् इत्युक्ते अस्मिन् वाक्ये रुचिम् इति पदं कर्मपदं, कर्मपदं सर्वदा वयं जानीमः कर्मपदं सर्वदा द्वितीयविभक्तौ एव भवति, परन्तु अत्र क्रियापदं पश्यतु, पश्यामि इति पदमस्ति. पश्यामि इति क्रियापदं सकर्मकक्रियापदम्. यदि क्रियापदं सकर्मकपदम् अस्ति चेत् तत्र कर्मपदं सम्भवति. अत्र पश्यामि इति क्रियापदमस्ति, परन्तु वयं जानीमः संस्कृतभाषायां सर्वाणि अत्र क्रियापदस्य मूलरूपमस्ति धातुः. क्रियापदस्य मूलरूपं धातुः इति वदामः. अत्र पश्यामि इति पदस्य मूलरूपं दृश् दृश् धातुतः पश्यामि इति रूपं तिङन्तपदम् आगतम्. अपि च पश्यामि इति क्रियापदं सकर्मकपदम्, अतः अत्र रुचिं पश्यामि, भवती एव सर्वं करोतु, अहं केवलं रुचिं पश्यामि इति सा वदति. किञ्चित् अवगतं वा भगिनि सम्भाषणम्?
It's just that, you know, you don't know what is koshambarim, you know, it's connected to cooking, like in...
इत्युक्ते अत्र पश्यतु कोशम्भरि, अपि च इतोपि किमस्ति अत्र क्वथितं, तेमनम्, अपि च व्यञ्जनं वयं जानीमः, परन्तु एतानि पदानि पाकविशेषाः, डिफ्रेण्ट् वेरैटीस् आफ् डिसर्ट् स्पेशल् फुड्स्. यदि भवती शब्दकोशं पश्यति चेत् अवगन्तुं शक्नोति तेषाम् अर्थः कः. अहं ईमेल् ईमेल् यदा अहं प्रेषयामि तदा तत्र शब्दकोशमपि शब्दकोशस्य लिङ्क् पश्यामि, लिङ्क् प्रेषयामि, तदर्थं शब्दकोशं पश्यति चेत् भवती अवगन्तुं शक्नोति. उत्तमम्. अत्र अस्मिन् सम्भाषणे पदानि कानिचन पदानि तृतीयाविभक्त्यन्तरूपाणि, एकवचने अपि कानिचन पदानि सन्ति, बहुवचने अपि कानिचन पदानि सन्ति. भवती एव वदतु अधुना कानि कानि पदानि तृतीयाविभक्ति एकवचनान्तानि वदतु सम्भाषणं दृष्ट्वा.
आलुकेन, पूषमण्डेन, मरीचिकया
सुन्दरं,
महामरीचिकया, विण्डीनकैः.
अत्र विण्डीनकैः इति पदस्य रूपं रूपं तृतीयाविभक्ति बहुवचनं, न तु एकवचनं. अत्र उर्वारुकेण अपि च मया सह मयापि तृतीयान्तं रूपं. सुन्दरं भगिनि, भवती अवगतवती. प्रश्नाः सन्ति वा अस्मिन् विषये?
भगिनि
उत्तमम् उत्तमम्. अधुना वयं द्वितीयं करपत्रं पठामः. अत्र उमाशङ्करमहोदय, भवतः पार्श्वे द्वितीयं करपत्रम् अस्ति वा? नो चेत् तत्र कार्तिक् महोदय, भवान् पठितुमिच्छति वा?
अस्तु भगिनि,
द्वितीयं करपत्रं दृष्ट्वा.
अस्तु, द्वितीयम् इत्युक्ते रम्या प्रदर्शिनी तत् वा भिन्नः वा?
अत्र सः अपि च विना
अभ्यासः.
अस्तु,
पठामि वा भगिनि?
पठतु.
सः इति शब्दः यत्र भवति तत्र तृतीया विभक्तिः भवति. उदाहरणं, पिता पुत्रेण सह नगरं गच्छति. अभ्यासः, वाक्यरचनार्थं सहायकानां त्रयाणां शब्दानाम् आधारेण वाक्यानि रचयत. यथा,
अत्र महोदय एकवारम् अन्येषां कृते वदतु, अत्र पिता पुत्रेण सह नगरं गच्छति, अत्र पुत्रेण इत्यस्मिन् पदे णत्वमस्ति, किमर्थम्?
न जानामि भगिनि.
किमर्थम् इत्युक्ते, अत्र कोऽपि जानाति वा? कादम्बरी भगिनी वक्तुमिच्छति वा? वदतु भगिनि. अत्र पुत्रेण इति अस्ति, पुत्रेण इत्यस्मिन् पदे णत्वं मूर्धन्यणकारः अस्ति, किमर्थम्?
णकारः अस्ति.
उत्तमम्. पुत्रः, पुत्र इत्यस्मिन् पदे अत्र तकारस्य अनन्तरं रेफः अस्ति. यदि एकस्मिन्नेव पदे रेफः अस्ति अपि च दन्त्यनकारः अस्ति चेत् तदा तस्य दन्त्यनकारस्य स्थाने मूर्धन्यणकारः आगच्छति इति वयं जानीमः. अत्र तदर्थं पुत्रेण इति दत्तमस्ति. अपि च महोदय, भवान् वदतु, सहायकानां त्रयाणां शब्दानाम् इति अत्र त्रीणि पदानि सन्ति, तेषां विषये वदतु. विभक्तिः का, वचनं किं वदतु?
षष्ठी बहु बहुवचनं.
उत्तमम्, उत्तमं. सहायकानां त्रयाणां शब्दानाम्, अत्र शब्दः इति पुंलिङ्गपदम्, अतः एतानि त्रीणि पदानि पुंलिङ्गं पुंलिङ्गे सन्ति. अपि च यथा भवान् उक्तवान्, षष्ठीविभक्ति बहुवचनं. आधारेण वदतु महोदय, रूपं किम्?
आधारः इति प्रथमा विभक्त्याम्, आधारेण इति तृतीया एकवचनं, तृतीया विभक्तिः.
सुन्दरम्. अपि च अत्र रचयत, वयम् इदानीं पर्यन्तं वयम् अभ्यासपुस्तके केवलं रचयति इति जानीमः, परन्तु अत्र रचयत इति दत्तमस्ति, तस्य रूपं किम्?
तत्र प्रेरणा अस्ति, लोट् लकारे दत्तमस्ति, करोतु इति.
सुन्दरं, लोट् लकारे अस्ति. अभ्यासपुस्तके वयं कादम्बरी भगिनी वयं पठितवन्तः किं, पठतु, पठन्तु, लोट्लकाररूपाणि. परन्तु अत्र मध्यमपुरुष बहुवचनं, इदानीं पर्यन्तं वयं न पठितवन्तः, अत्र अभ्यासपुस्तके तत् न दत्तमस्ति. संस्कृतभाषायां प्रथमपुरुष, मध्यमपुरुष अपि च उत्तमपुरुष इति त्रयः पुरुषाः सन्ति. अत्र रचयत इति पदं मध्यमपुरुष, बहुवचनम् अपि च लोट् लकारः, यथा महोदयः उक्तवान्. उदाहरणत्वेन प्रथमं वाक्यं पठतु महोदय.
लक्ष्मणः रामः वनं, लक्ष्मणः रामेण सह वनं गतवान्.
अत्र सः इति पदम् उपपदम्, उपपदस्य योजनेन अत्र तृतीयविभक्तरूपं दत्तमस्ति. लक्ष्मणः रामेण सह वनं गतवान्, अथवा अन्यं वाक्यं वयं स्वस्य वाक्यं वक्तुम् इच्छामश्चेत् सी रामः सीतया सह वनं गतवान् अथवा सीता रामेण सह वनं गतवती इति अपि वक्तुं शक्नुमः. प्रथमं वाक्यं करोतु महोदय. अत्र किं दत्तमस्ति, सूचना का इत्युक्ते अत्र त्रीणि पदानि दत्तानि. एतेषां पदानां योजनेन वयम् एकं नूतनं वाक्यं रचयितुं शक्नुमः. रविः मित्रं नगरम् इति त्रीणि पदानि दत्तानि. तेषां योजनेन एकं वाक्यं रचयितुं शक्नुमः. करोतु महोदय.
रविः मित्रेण सह नगरं गतवान्.
उत्तमं. कादम्बरी भगिनी भवती द्वितीयं करोतु.
गोपालः शिवेन सह सम्भाषणं पठति.
सम्भाषणं पठति. अत्र शिवेन सह अस्ति, तत्र णत्वम् अस्ति वा नास्ति वा?
नास्ति.
किमर्थं नास्ति?
मूर्धन्यषकारः नास्ति.
सुन्दरम्. मूर्धन्यषकारः अपि च कृष्णऋकारः अपि च रेफः नास्ति. इत्युक्ते किं वदामः, अत्र निमित्तं नास्ति. यत्र निमित्तं नास्ति तत्र कार्यं न भवति. निमित्तमस्ति चेदेव कार्यं भवितुं शक्नोति. तृतीयं करोतु.
गोविन्दः भवत्या सह चर्चां करोति.
चर्चां करोति. अत्र पश्यतु, गोविन्दः भवत्या सह उक्तवती, भवत्या सह चर्चां करोति. तत्र करोति इति पदम् अपि च इतोपि अन्यानि क्रियापदानि अपि योजयितुं शक्नुमः. इत्युक्ते भवती इच्छति चेत् चर्चां कृतवान्, चर्चाम् अकरोत् अथवा चर्चां करिष्यति अथवा कृतवती न वदामः. किमर्थं कृतवती न वदामः इत्युक्ते अस्मिन् वाक्ये कर्तृपदं गोविन्दः. गोविन्दः कृतवान्. गोविन्दः इति पुंलिङ्गपदम्. अतः गोविन्दः भवत्या सह चर्चां कृतवान् अथवा अकरोत् अथवा करिष्यति. इत्युक्ते किमपि क्रियापदस्य रूपं वर्तमानकालरूपं वा भविष्यत्कालरूपं वा भूतकालरूपं वा किमपि भवितुमर्हति. तत्र भवती केवलं वर्तमानकालरूपं योजितुमिच्छति. करोति इति उक्तवती भवती. अतः गोविन्दः भवत्या सह चर्चां करोति. उत्तमम्, उत्तमम्. अनन्तरं सुचित्रा भगिनी भवती करोतु अग्रिमवाक्यम्.
माता पुत्र्याः सह बन्धुगृहं गतवती.
अत्र पुत्री इति पदमस्ति. अस्माकं कृते तृतीयान्तं रूपम् आवश्यकं. पुत्री इति पदस्य तृतीयान्तं रूपं किम्?
पुत्र्यः. पुत्र्या. पुत्र्या.
उत्तमम्. पुत्र्या सह. यदि पुत्र्याः इति वदामश्चेत् षष्टिविभक्त्यन्तरूपं भवति, परन्तु अस्माकं कृते अत्र तृतीयान्तं रूपम् आवश्यकम्. समीकृत्य अधुना वदतु.
माता पुत्र्या सह बन्धुगृहं गतवती.
उत्तमम्. गतवती अथवा गच्छति, किमपि गमिष्यति. उत्तमम्. अनन्तरं सः अग्रिमं करोतु.
सः भगिन्या सह कलहं कृतवान्.
कृतवान् उत्तमं सः इति पदं पुंलिङ्गपदम् अतः कृतवान् एव भवितुमर्हति सः भगिन्या सह कलहं करोति अथवा सः भगिन्या सह कलहं कृतवान् सः सर्वदा भगिन्या सह कलहं करोति किमपि तत्र क्रियापदं त्रिषु कालेषु तस्य रूपं भवितुमर्हति तत्र अग्रिमम् अत्र उमाशङ्करमहोदय भवान् करोतु अग्रिमम् करोति वा महोदय
खग भवान् आगतवान् खग भवत्या भवान्
अत्र पश्यतु महोदय अत्र पश्यतु त्रीणि पदानि सन्ति कः भवान् आगतवान् आगतवान् अत्र भवान् पदस्य तृतीयान्तं रूपं किं
भवता आगतवान् खग भवता सह कुत्र आगतवान्
कः भवता सह कुत्र आगतवान् अत्र इतोपि अन्यं प्रश्नवाचकपदं योजितवान् भवान् अस्तु कः भवता सह कः आगतवान् इत्युक्ते किं महोदय आङ्ग्लभाषायाम् अनुवादं करोतु भवता सह कः आगतवान्
Where did you go with him? Bhavan.
Atra,
where you are coming from?
Na mahodaya. Atra Suchitra Bhagini Bhavati Vadatu. Atra Bhavata Saha Kaha Agatavan. Ichukte kim?
Bhavata. Just Bhavata Saha Kaha Agatavan. Bhavata Saha. With him, where did you come or where did you go? Agatavan, where did you come?
Bhavata saha, chukte with you.
You.
Okay. With you, where did you
go?
Go. Agatavan.
Na bhagani.
Gatavan is go. Agatavan is
अत्र पश्यतु भवता सह कः आगतवान्
कः आगतवान् वेर् डिड् यु आगतवान् इस् टु कम् रैट् भगिनि
अत्र कार्तिक् महोदय भवान् वदतु किञ्चित् अनुवादं कृत्वा वदतु आङ्ग्लभाषायां
कः इत्युक्ते Who इति अर्थः भवता मीन्स् वित् यु भवान् इत्युक्ते यु भवता इत्युक्ते वित् यु हू केम् वित् यु आगतवान् इत्युक्ते केम् पास्ट् टेन्स्
सुन्दरं वित् यु हू केम् अत्र कः इति पदस्य विशेषणम् आगतवान् भवता सह कः आगतवान् इति अत्र प्रश्नं पृच्छ कोऽपि पृच्छति अत्र अत्र अधुना उमाशङ्करमहोदय भवान् करोतु अग्रिमं वाक्यं
राजा सैनिकाग युद्धार्थं राजा सैनिक्या सह युद्धार्थं कृतवान्
अत्र पश्यतु महोदय सैनिकाः इति पदमस्ति पदम् अत्र पदस्य वचनं किं
वचनं बहुवचनं
बहुवचनम् अतः तृतीय बहुवचनम् आवश्यकम्.
चैनिकै चैनिकैः सह युद्धार्थं कृतवान्.
पूर्णतया वाक्यं वाक्यं पूर्णतया वदतु, सम्पूर्णं वाक्यं वदतु समीकृत्य.
राजा सैनिकैः सह युद्धार्थं कृतवान्.
गतवान्, उत्तमम्. अत्र पश्य अत्र पश्यतु, राजा इति पदमस्ति. राजा इति पदं भवान् ऊहं कर्तुं शक्नोति वा, तस्य प्रातिपदिकं किम् इत्युक्ते तस्य मूलरूपं किम्?
राज्
अत्र राजा इति कोऽपि जानाति वा अस्माकं कक्षायाम्? अत्र राजा इति पदं हलन्तपदं, नकारान्तपदं, नकारान्तपदम्. अत्र तस्य प्रातिपदिकम् इत्युक्ते यत्र कुत्रापि सुबन्तपदं, सुबन्तपदम् इत्युक्ते अत्र नामपदं, सुबन्तपदम् अस्ति चेत् तस्य मूलरूपं, मूलरूपं किम् इत्युक्ते प्रातिपदिकम् इति वदामः. अत्र किञ्चित् न्यूट् करोमि. अत्र प्रातिपदिकमस्ति राजन् इति प्रातिपदिकम्, नकारान्तपदं. तस्य रूपाणि कथं भवन्ति इत्युक्ते अत्र राजा, राजानौ, राजानः तथा भवन्ति रूपाणि. अत्र राजा इति पदं नकारान्तपदं, न तु दीर्घ आकारान्तपदं. परन्तु यदि वयं पदं पश्यामश्चेत् केवलं राजा इति पदं सीता इति इव दृश्यते, परन्तु तदा सीता इति पदं दीर्घ आकारान्तपदं, परन्तु अत्र राजा इति पदं नकारान्तपदं, हलन्तपदम्. अस्माकं कृते किञ्चित् नूतनं पदम्. अपि च अधुना कादम्बरी भगिनी भवती करोतु, अष्टमं वाक्यं रचयतु.
अस्तु. गीता सख्येन प्रवासार्थं गच्छति.
अत्र पश्यतु भगिनी, द्वितीयं पदं किं दत्तमस्ति?
सख्येन,
सख्यः, सख्यः इति दत्तमस्ति. तस्य रूपं किम्?
पुल्लिङ्गम्.
अत्र सखी इति पदं, सखी ईकारान्त, यथा नदी शब्दवत्, अत्र नदी शब्दवत् सखी इति पदम्. वचनं किं वदतु? अत्र वचनं बहु
एकवचनं.
अत्र वचनं बहुवचनं भगिनी, किमर्थं चेत् अत्र सखी, सख्यौ, सख्यः, यथा नदी, नद्यौ, नद्यः. अत्र प्रथम बहुवचनरूपं दत्तमस्ति स्त्रीलिङ्गे, सख्यः, सखी, सख्यौ, सख्यः इति भवति. अधुना अत्र त्रीणि पदानि दत्तानि. एकं वाक्यं रचयतु सः अपि योजयित्वा.
वैद्यः
भगिनि 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 अत्र अष्टमम् अष्टमं वाक्यं सम्यक् रीत्या वदतु.
गीता सख्यैः प्रवासार्थं गच्छति.
सख्यैः इति वदामश्चेत् पुंलिङ्गपदमस्ति चेदेव सख्यैः इति वदामः, परन्तु अहं पूर्वमेव उक्तवती सखी इति पदं स्त्रीलिङ्गपदम्, अतः तस्य रूपं किं भवति इत्युक्ते सखीभिः, सखीभिः सह. अधुना वदतु.
गीता सखीभिः सह प्रवासार्थं गच्छति.
गच्छति, उत्तमम्. अथवा गतवती अथवा अगच्छत्, उत्तमं. सखीभिः सह प्रवासार्थं गच्छति. अग्रिमं करोतु.
वैद्यः अश्वस्तैः सह सम्भाषणं करोति.
सुन्दरम्. अस्वस्थैः सह इति भवती उक्तवती, परन्तु अहं वदामि अस्वस्थाभिः इति अपि समीचीनम्. अत्र किमर्थं चेत् अत्र अस्वस्थ इति पदं विशेषणं, विशेषणम् इत्युक्ते अत्र तस्य रूपाणि त्रिषु लिङ्गेषु भवन्ति इत्युक्ते स्त्रीलिङ्गे अपि वयं वक्तुं शक्नुमः. भवती पुंलिङ्गे उक्तवती, पुंलिङ्गतृतीया बहुवचनं योजयित्वा उक्तवती. स्त्रीलिङ्गे वदामि चेत् अस्वस्थाभिः, तथा किमर्थं भवती अवगतवती वा अहं किं वदामि भगिनि? अत्र पश्यतु, अस्वस्थः इति पुंलिङ्गपदमस्ति चेत् बहुवचनं अस्वस्थाः इति भवति. यदि अस्वस्था इति स्त्रीलिङ्गपदमस्ति चेदपि तस्य रूपम् अस्वस्थाः इति भवति. इत्युक्ते अत्र विकल्पेन इत्युक्ते अन्यत् रूपेण अपि वयं वाक्यरचनां कर्तुं शक्नुमः. अत्र अस्वस्थैः सह अथवा अस्वस्थाभिः सह इति अपि समीचीनम्. इत्युक्ते स्त्रीलिङ्गे अपि अत्र वाक्यं रचयितुं शक्यम्. अन्तिमं करोतु.
खाः भवतीभिः सह गच्छति.
आगच्छन्ति इति दत्तमस्ति. काः आगच्छन्ति? भवती किम् उक्तवती, पुनः एकवारं वदतु.
काः भवतीभिः सह आगच्छन्ति
इत्युक्ते किम्? आङ्ग्लभाषायां किञ्चित् अनुवादं करोतु अन्येषां कृते. भवतीभिः सह काः आगच्छन्ति?
With
you? With you?
With whom are you going to come?
अत्र कार्तिक् महोदय भवान् वदतु एकवारम् अनुवादं कृत्वा.
अस्तु, काः इत्युक्ते स्त्रीलिङ्गं हू, मेनि लेडीस् हू मेड् द मेनि मेनि लेडीस्. भवतीभिः अगेन् यु मेनि फीमेल्स्, वित् यु फीमेल्स् हू अण्ड् आल् केम् आर् कमिङ्ग् कम्
कमिङ्ग्
इस् एक्चुलि
उत्तमम्. इत्युक्ते अत्र काः इति पदं स्त्रीलिङ्गबहुवचनं प्रथमाविभक्त्यन्तरूपं, यथा कादम्बरी भगिनी उक्तवती भवतीभिः, तदपि स्त्रीलिङ्गबहुवचनरूपं तृतीयान्तं रूपं. With you, who are the other ladies came? Who are the other ladies came with you? Come with you. तथा भवति अत्र वाक्यम्. अत्र अग्रिमे पुटे एकम् अन्यम् अत्र अन्यः अभ्यासः अस्ति, विना इति पदस्य योगे अपि तृतीया विभक्तिः भवति इति अभ्यासः अस्ति. महोदय भवानेव करोतु अत्र अग्रिमे पुटे.
विना इत्यस्य शब्दस्य योगे तृतीया विभक्तिः भवति. उदाहरणं, धनेन विना कोऽपि न जीवति. सूचना,
अत्र पश्यतु, धनेन विना, धनेन, धनम् इति नपुंसकलिङ्गपदं, धनेन विना कोऽपि न जीवति. सत्यं वा महोदय वाक्यम्? किञ्चित् सत्यम्. उत्तमं, धनेन विना कोऽपि न जीवति. अत्र कोऽपि वयम् अहं पूर्वमपि उक्तवती, अत्र कोऽपि इत्यस्मिन् पदे तत्र सन्धित्रयमस्ति. अत्र कः प्लस् अपि सन्धयः का के इत्युक्ते अत्र विसर्गसन्धिः अस्ति, गुणसन्धिः अपि च पूर्वरूपसन्धिनाम्ना सन्धित्रयमस्ति अत्र. अपि च अत्र एका विशेषसूचना अपि अस्ति. पठतु महोदय, सूचना का अत्र आवरणे?
विना शब्दस्य योगे द्वितीया विभक्तिः पञ्चमे विभक्तिः चापि भवति.
इत्युक्ते किम्?
विना शब्देन सह द्वितीया विभक्तिः पञ्चमी विभक्तिः अपि च तृतीया विभक्तिः, विभक्तित्रयम् अपि भवितुं शक्यते.
शक्यते, उत्तमम्. इत्युक्ते इदानीं पर्यन्तं वयम् अत्र अस्माकं विषयः केवलं तृतीया विभक्तिः, अतः तृतीया विभक्तेः विषये एव विनाशब्दस्य प्रयोगं कुर्मः. परन्तु पञ्चमी विभक्तौ अपि च द्वितीया विभक्तौ अपि विनाशब्दस्य प्रयोगं कुर्मः. अत्र चापि इति पदमस्ति, च योगः अपि. अत्र सन्धेः नाम किं महोदय, वदतु?
सवर्णदीर्घसन्धिः.
सुन्दरं. चापि, च योगः अपि. अभ्यासः, वदतु महोदय.
अभ्यासः: कैः विना कः किं कर्तुं न शक्नोति, किं न करोति, किं करोति इति वदत. यथा
अत्र अत्र पश्यतु महोदय, अन्येषां कृते वदतु. अत्र कैः विना, अत्र कैः इति पदस्य रूपं किम्?
पुल्लिङ्गशब्दः. किम् इति प्रातिपदिकं, कः इति प्रथमाविभक्त्याम् एकवचने भवति, कैः इति तृतीयाविभक्ति बहुवचनरूपं, केन काभ्यां कैः इति भवति तृतीयाविभक्त्या.
सुन्दरम्. इत्युक्ते कैः विना कः किं कर्तुं न शक्नोति, किं न करोति, किं करोति इति वदत. अत्र वदत इति दत्तमस्ति, रूपं किं महोदय?
पुनः लोट् लकारः, मध्यमपुरुष बहुवचनरूपं.
सुन्दरं. करोतु, उदाहरणं पठतु.
यथा लेखनी लेखन्या विना हरिः लेखितुं न शक्नोति.
अत्र लेखन्या विना हरिः लेखितुं न शक्नोति. वयमपि तादृशम् एव अत्र, लेखन्या विना लेखितुं न शक्यं, न शक्यते. अत्र विना लेखन्या इति पदं वदतु महोदय, लेखन्या इत्यस्मिन् विषये वदतु रूपम्.
लेखनी इति ईकारान्त श्रीलिङ्गपदम् अस्ति, तस्याः पदस्य तृतीया विभक्ति एकवचनरूपं लेखन्या इति भवति.
उत्तमं. भवान् जानाति, परन्तु वदतु, अन्येषां कृते वदतु, तृतीया विभक्ति रूपाणि त्रिषु वचनेषु वदतु.
लेखन्या लेखनी अस्तु, नदी नद्या नदीभ्याम् अस्तु, लेखनीभ्यां लेखनीभिः.
सुन्दरं. लेखन्या लेखनीभ्यां लेखनीभिः. उत्तमम्. अत्र लेखनी एतदेव वाक्यं बहुवचने वदतु.
अस्तु, लेखनीभिः विना हरिः लेखितुं न शक्नोति.
सुन्दरं, सुन्दरं महोदय, धन्यवादः. अनन्तरं प्रथमं वाक्यं करोतु.
कार्येण विना रामः स्थातुं न शक्नोति.
अत्र वयं न पठितवन्तः इदानीं पर्यन्तम् अभ्यासपुस्तके. अत्र तुमुन्नन्तरूपाणि, तुमुन् इति एकः विषयः अस्ति, परन्तु अत्र अस्मिन् वाक्ये स्थातुं, स्थातुम् इति पदं तुमुन्नन्तं रूपम्. अत्र धातुः अस्ति स्थाधातुः. स्थाधातुः अकर्मकधातुः, यत्र कुत्रापि अत्र स्थाधातुः कर्मपदं न स्वीकरोति, अकर्मकधातुः. अत्र कार्येण अत्र णत्वम् अस्ति वा महोदय?
रेपः अस्ति, तदर्थं भवति इति चिन्तयामि.
नत्वं भवति. उत्तमं. कार्येण विना रामः स्थातुं न शक्नोति इत्युक्ते किम्? आङ्ग्लभाषायां वदतु.
Without work, Rama cannot able to stay.
Cannot stay. Uttamam. Dvitiyam karotu.
Upanetrena vina saha drashtum na shaknoti.
Tattu satyameva. Upanetrena vina vayamapi saha iti dattamasti. Upanetrena vina सः द्रष्टुं न शक्नोति. अत्र द्रष्टुम् इति पदं तुमुन्नन्तं रूपम्. अत्र द्रष्टुम् इति पदस्य लट्लकाररूपं किं महोदय?
पश्यति इति भवति.
पश्यति इति भवति. किञ्चित् तत्र ऊहां कर्तुं न शक्यं. किमर्थं चेत् अत्र धातुः अस्ति दृष् धातुः, परन्तु लट्लकाररूपं पश्यति. किञ्चित् नूतनं अत्र ऊहां कर्तुं न शक्यं. दृष् धातुतः द्रष्टुम् इति पदम् आगतं. धन्यवादः महोदय. अनन्तरं कादम्बरी भगिनी भवती करोतु तृतीयं वाक्यम्.
अस्तु भगिनि. पादरक्षया विना सा चलितुं न शक्नोति.
सत्यं वा भगिनि एतत् वाक्यम्? अवगतवती वा अस्य अर्थः कः? पादरक्षया विना सा चलितुं न शक्नोति. भवती द्विवचने वक्तुं शक्नोति वा? अत्र एकवचने भवती उक्तवती, सुन्दरं भवती सम्यक् रीत्या उक्तवती, परन्तु द्विवचने वदतु.
पादरक्षौ विना सा चलितुं न शक्नोति.
अत्र पश्यतु, पादरक्षया इति उक्तवती. अत्र तृतीयाविभक्ति एकवचनं, परन्तु अस्माकं कृते तृतीयाविभक्ति द्विवचनम् आवश्यकम्. लता शब्दं पश्यतु एकवारं. भवती किं जानाति आकारान्तस्त्रीलिङ्गपदं? किं पदं ज्ञातवती भवती?
लता.
लता शब्दं जानाति. जानाति चेत् तृतीया द्विवचनं किं भवति?
लताभ्यां.
तथा एव अत्रापि करोतु.
पादरक्षाभ्यां
विना सा चलितुं न शक्नोति. अग्रिमं करोतु.
आसन्देन विना एषः उपवेष्टुं न शक्नोति.
अत्र उपवेष्टुम् इति तुमन्नन्तरूपं. भवती किं जानाति चेत् वदतु, उपवेष्टुम् इति पदस्य लट् रूपं किम्? अत्र पश्यतु, भवती कुत्र उपविशति इति अहं प्रश्नं पृच्छामि. भवती कुत्र उपविशति इति प्रश्नं पृच्छामि चेत् किम् उत्तरं किं भवति वदतु एकवारं. उत्तरं वदतु, भवती कुत्र उपविशति अधुना?
आसन्देन उपविशयामि.
आसन्दे उपविशामि. तत्र सप्तमी रूपं भवति, न तु तृतीयारूपम्. आसन्देन, अत्र आसन्देन इति किमर्थमित्युक्ते विना इति पदमस्ति. यत्र कुत्रापि विना इति पदम् आगच्छति चेत् तत्र तृतीया विभक्तिः भवति. अत्र अपि च विना इति शब्दस्य प्रयोगः द्वितीयाविभक्तौ अपि च पञ्चमीविभक्तौ अपि भवति इति दत्तमस्ति, परन्तु अत्र उपवेष्टुम् अधुना वदतु, उपवेष्टुम् अहम् उक्तवती, उपवेष्टुं पदस्य लट् रूपम् वर्तमानकालरूपम्
अहं न जानामि.
सुचित्रा भगिनी वदतु, जानाति
उपविशति.
सुन्दरं सुन्दरम् उपविशति वर्तमानकालरूपम्. उपवेश्यति इति पदस्य तुमुन्नन्तं रूपम् उपवेष्टुम्. तुमुन्नन्तं रूपं किं वदामः? कृदन्तपदम् इति वदामः. अत्र उप अत्र लट्लकाररूपम् उपविशति. उप इति उपसर्गः, विश् इति धातुः, उप उपसर्गपूर्वकः, विश् धातुः, अपि च तुमुन् इति प्रत्ययं योजनेन उपवेष्टुम् इति पदम् आगच्छति, परन्तु तस्य वर्तमानकालरूपम् उपविशति. अत्र धातुः अस्ति विश्, उप उपसर्गपूर्वकः, विश् धातुः. उत्तमम्. आसन्देन विना एषः उपवेष्टुं न शक्नोति. भगिनी बहुवचने वदतु एतदेव वाक्यं, कादम्बरी भगिनी.
अस्तु, आसन्दे
आसन्दः पुंलिङ्गपदम्. आसन्दैः इति
आसन्दैः विना एषः उपवेष्टुं न शक्नुवन्ति.
शक्नुवन्ति, सुन्दरं, शक्नुवन्ति. परन्तु एषः शब्दस्य रूपमपि बहुवचने भवेत्. एषः इति पदस्य वदतु.
एताः
अत्र एषः इति पुंलिङ्गरूपम्, अतः एताः इति पदं स्त्रीलिङ्गे भवति, एषा एताः, परन्तु एषः अत्र एषः इति दत्तम्. एते एते इति भवति. अधुना समीकृत्य पूर्णं वाक्यं बहुवचनं, बहुवचने वदतु.
आसन्दैः विना एते उपवेष्टुं न शक्नुवन्ति.
सुन्दरं, सुन्दररीत्या उक्तवती. अग्रिमं करोतु.
दन्तैः विना वृद्धः चर्वणं कर्तुं न शक्नोति.
अत्र यदि वृद्धं पश्यति चेत् तस्य वृद्धः इत्युक्ते तस्य दन्ताः न सन्ति, अतः दन्तैः विना वृद्धः चर्वणं कर्तुं न शक्नोति. अत्र चर्वणम् इति नूतनं पदं, तस्य अर्थः कः?
च्यूयिङ्ग्.
उत्तमं. दन्तैः विना वृद्धः चर्वणं कर्तुं न शक्नोति इति तु सत्यम्. उत्तमं भगिनी, धन्यवादः. अनन्तरम् अधुना अत्र विलम्बेन केनापि आगतं वा? अत्र 703810 संख्या अस्ति. अत्र भगिनी भवती अपि, भावना भगिनी वक्तुम् इच्छति वा?
दिस् इस् भावना भगिनी नम्बर्.
अत्र भवती अपि वक्तुम् इच्छति वा? अत्र द्वितीयं करपत्रं पश्यतु. न करोति अत्र द्वितीये करपत्रे.
which number?
अत्र द्वितीयं करपत्रं पश्यतु. अत्र विना इति विना इति अभ्यासः अस्ति. आत्मविश् न करोति.
नम्बर् सिक्स्.
अत्र षष्ठं वाक्यं करोतु.
कुत्रं न करोति चित्रकरे चित्रं न लिखति.
अत्र इदानीं पर्यन्तं वयम् अत्र उपरितनवाक्यानि वयं पठितवन्तः. अत्र न करोति इति अत्र षष्ठं वाक्यं पठतु भगिनी. आत्मविश्वासः इति दत्तमस्ति. पश्यति वा पश्यति वा
आत्मविश्वासं न करोति तं कार्यं न करोति
करोति. अत्र अत्र पदमस्ति. अत्र पश्यतु आत्मविश्वासः इति पदं पुंलिङ्गपदम्. तस्य तृतीयान्तं रूपं किम्? अत्र कोऽपि वदति वा? कादम्बरी भगिनी भवती वदतु. अत्र आत्मविश्वासः इति पदमस्ति. तस्य तृतीयान्तं रूपं किम्?
आत्मविश्वासेन.
सुन्दरं. भवती एव करोतु, वाक्यं पूरयतु.
अस्तु. आत्मविश्वासेन विना सः कार्यं न करोति.
कार्यं न करोति. उत्तमम्. अधुना अवगतवती वा भगिनी? अत्र भावना भगिनी.
Without the confidence, we cannot do work.
उत्तमम्. अत्र सप्तमं वाक्यं भवती एव करोतु.
करुयानं विना धनिकं साक्षादे न करोति.
भगिनी अत्र पश्यतु पदमस्ति सञ्चारं. सञ्चारम् इति पदमस्ति.
सञ्चारं
अत्र
कार्यानं विना धनिकं सञ्चारं न करोति.
अत्र वाक्यं किञ्चित् परिवर्तनं कृत्वा कथं वक्तव्यम्? अत्र यु हव् टु चेञ्ज् द सेण्टेन्स्. अत्र कारयानम् इति पदं दत्तमस्ति. अत्र वाक्यं किञ्चित् परिवर्तनं कृत्वा सम्यक् रीत्या वक्तव्यं वाक्यं. पुनः एकवारं करोतु. शक्नोति वा कथं कर्तव्यं वदतु.
करायानं कार्येण किं धनिकं
सञ्चारं न करोति. अत्र सुचित्रा भगिनी भवती पूरयतु वाक्यं सम्यक् रीत्या परिवर्तनं कृत्वा वदतु.
कारयानेन सह धनिकः सञ्चारं न करोति. कारयेन विना धनिकः कारयानेन विना धनिकः सञ्चारं न करोति.
सुन्दरं. कार्यानेन विना कार्यानेन विना. भवती एव करोतु अग्रिमं वाक्यं.
कूर्चेन विना चित्रकारः चित्रं न लिखति.
अत्र कूर्चेन अस्ति. अत्र णत्वम् अस्ति वा? नकारः अस्ति वा न वा?
च अस्ति.
च अस्ति इति कारणतः तत्र णत्वं न भवति. अत्र यद्यपि अत्र णत्वस्य कृते निमित्तम् अस्ति किन्तु णत्वं न भवति. किमर्थं चेत् तत्र बाधकवर्णः अस्ति, निमित्तमस्ति चेदपि बाधकवर्णः चकारः अस्ति इति कृत्वा अत्र णत्वं न भवति, केवलं कूर्चेन इति भवति. पूर्वस्मिन् वाक्ये कारयानम् इति अस्ति, तत्रापि णत्वं न भवति. किमर्थम् इत्युक्ते अत्र कारयानम् इति पदं समस्तं पदम् इत्युक्ते तस्मिन् पदद्वयमस्ति कारयानम्. तत्र णत्वं किमर्थं न भवति इति चिन्तनं कुर्मः चेत् अत्र पूर्वस्मिन् पदे निमित्तमस्ति, परपदे नकारः अस्ति. निमित्तं पूर्वस्मिन् पदे अस्ति परन्तु नकारः द्वितीये पदे अस्ति इति कृत्वा तत्रापि णत्वं न भवति. अतः रूपं किं भवति? कार्यानेन इति भवति. अत्र सुचित्रा भगिनी भवती वदतु, चित्रकारः इति पदमस्ति, तस्य तृतीयान्तं रूपं किम्?
चित्रकारः तृतीया चित्रकारः चित्रकारेण तृतीया.
अत्र णत्वम् अस्ति वा?
चित्रकार would it be like कारयानं भगिनी or is it one word?
अत्रापि अत्रापि रेफद्वयम् अस्ति, इत्युक्ते रकारः द्विवारम् अस्ति अस्मिन् पदे चित्रकार. अत्र कार इति पदम् अस्ति, तस्य निमित्तम् अस्ति, अपि च बाधकवर्णाः न सन्ति, अपि च द्वितीयरेफः एव निमित्तं तत्र, न तु प्रथमरेफः. कार इत्यस्मिन् रेफः अस्ति, द्वितीयरेफः एव णत्वस्य कृते निमित्तं भवति, अतः चित्रकारेण इति भवति. अग्रिमं करोतु.
गट्या विना सः कुत्रापि न गच्छति.
घटी तस्य रूपं किं भगिनि वदतु? घटी इति पदस्य एकवचनं प्रथमाविभक्ति तत्र त्रिषु वचनेषु रूपाणि वदतु.
घटी नदी नद्याः नदी एकनिमिषं भगिनि. नदी नद्यौ नद्यः घटी घट्यौ घट्याः.
उत्तमम् इत्युक्ते घटी घट्यौ घट्यः, परन्तु घट्याः इति तत्र आकारं वदामश्चेत् तत्र षष्टिविभक्तिः भवति, न तु अत्र घट्यः घट्यः. अत्र घटी बहुवचने वक्तुमिच्छामश्चेत् घटीभिः सह इति भवति. अन्तिमं वाक्यं भवती एव करोतु.
धनेन विना जनाः जीवनं न कृतवन्तः.
कुर्वन्ति अत्र कुर्वन्ति इति
कुर्वन्ति
धनं धनेन विना जनाः जीवनं न कुर्वन्ति. उत्तमं भगिनि. अनन्तरम् अत्र इतोपि किं कर्तव्यम् इत्युक्ते अत्र उमाशङ्करमहोदय भवान् वक्तुम् इच्छति वा? अत्र अहम् एकं वदामि, प्रथमाविभक्त्यन्तरूपं वदामि, भवान् तृतीयान्तं रूपं वदतु महोदय. अस्ति वा? अत्र अहं प्रथमान्तं रूपं वदामि, भवान् तृतीयान्तं रूपं वदतु. चषकः
चषकेन
तत्र णत्वम् अस्ति चेत् सम्यक् उच्चारणं करोतु. चषकेण अपि च चमसः
चमसेन
दण्डः
दण्डेन
शिलाखण्डः
शिलाखण्डेन
करदीपः
करदीपेन
गजः
गजेन
गजेन उत्तमम् अपि च मयूरः
मयूरेण
स्यूतः
स्यूतेन
दन्तकूर्चः
दन्तकूर्चेन
अत्र दन्तकूर्चेन तत्र णत्वम् अस्ति वा न वा
अस्ति
अत्र
नास्ति
किमर्थं किमर्थं सुन्दरं सुन्दरं भवान् अवगतवान् इत्युक्ते अत्र चकारः बाधकवर्णः अतः ऋणत्वं नास्ति अपि च अहं कानिचन पदानि नपुंसकलिङ्गपदानि वदामि अहं प्रथमान्तं रूपं वदामि भवान् तृतीयान्तं रूपं वदतु पुस्तकं
पुस्तकेन
कङ्कणं
कङ्कणेन
पुष्पं
पुष्पेन
तत्र णत्वम् अस्ति
पुष्पेन
फेनकं
फेनकेन
उपनेत्रम्
उपनेत्रेण
कन्दुकः कन्दुकं कन्दुकं
कन्दुकेन
कङ्कतं
कङ्कतेन
फलं
फलेन
विमानं
विमानेन
सुन्दरम् अपि च अहं कानिचन पदानि स्त्रीलिङ्गपदानि वदामि अत्र तेषां तृतीयान्तं रूपं वदतु स्थालिका
स्थालिक्या
सम्यक् उच्चारयतु महोदय
स्थालिकया
उत्तमं माला
मालया
पत्रिका
पत्रिकया
छुरिका
छुरिकया
दर्वी
दर्व्या
सुन्दरम् अत्र पश्यतु दर्वी इति पदम् ईकारान्तपदम् अतः दर्वी दर्व्या इति भवति घटी घटी
घट्या
कर्तरी
कर्तर्या
दूरवाणी
दूरवाण्या
अन्तिमं पदमस्ति कूपी
कूप्या
सुन्दरम् उत्तमं महोदय धन्यवादः अनन्तरम् अत्र अन्तिमं करपत्रमस्ति तृतीया बहुवचनं नाम्ना सर्वे तत् करपत्रं पश्यन्तु अत्र रम्या प्रदर्शिनी इति शीर्षिका अस्ति अत्र तृतीया बहुवचनम् इति सम्भाषणं पठामः अधुना अत्र कादम्बरी भगिनी अपि च अत्र कार्तिक् महोदय पठन्तु सम्भाषणम्
पुत्रः कः भगिनि
अत्र पुत्रः कादम्बरी भवान् पिता
अस्तु
कादम्बरी भगिनी पठतु
मञ्जुला कः भगिनि
अत्र रम्या प्रदर्शिनी इति एकं तृतीयं करपत्रमस्ति अस्माकं पार्श्वे अस्ति वा भवती पश्यति वा शीर्षिका अस्ति रम्या प्रदर्शिनी तृतीया बहुवचनं
तात अद्य प्रदर्शिनी द्रष्टुं किं नगरं गच्छामः?
प्रदर्शिनी कुत्र आयोजिता अस्ति? किं भवान् स्थलं जानाति?
प्रदर्शिनस्थलम् अहं जानामि, गृहजनाः सर्वे गच्छाम।
अहं सार्धपञ्चवादने मम कार्यं समापयामि, गच्छाम।
भगिनी पठतु।
तात पश्यतु, प्रदर्शिनी विविधवर्णरञ्जितैः दीपैः अलङ्कृता अस्ति, अन्तः गच्छामः। पश्यतु, दण्डैः विविधविन्यासः कृतवन्तः।
अत्र पश्यतु, शलकाभिः चित्राणि कृतवन्तः।
तत्र गच्छाम, एका पञ्चालिमातस्याः स्नेहितैः सह क्रीडति। अपरां पश्यतु, अखिभिः सह नृत्यति, अन्या बालकैः युद्ध्यास्ति।
वत्स, प्रदर्शिनी दर्शनार्थं वयं यत् आगतवन्तः तत् सार्थकम् अभवत्।
भगिनी भवती एव पठतु पत्रम्।
अस्तु, प्रदर्शिनी नूतनोपकरणैः सज्जीकृतवन्तः सन्ति। अस्मिन् वर्षे प्रदर्शिनी समाचीना अस्ति।
समीचीना भगिनी अत्र भवती जानाति एव समीचीनम् इति पदं जानाति, परन्तु समीचीनम् इति पदं विशेषणम्, अतः त्रिषु लिङ्गेषु भवति। अतः अत्र प्रदर्शिनी इति पदं स्त्रीलिङ्गपदम् इति कृत्वा अत्र समीचीनम् इति पदं स्त्रीलिङ्गे अस्ति विशेषणं। प्रदर्शिनी समीचीना, वाक्यं समीचीनम्, ग्रन्थः समीचीनः। अग्रिमं भवान् पठतु महोदय, अग्रिमं परिच्छेदम्।
अस्तु, अहो तत्र पश्यतु अम्ब, देवीं सम्यक् अलङ्कृतवन्तः सन्ति। अहो अपूर्वं, वर्णोपेतैः दीपैः अनेकाभिः मालाभिः पुष्पैः फलैः विविधैः शाखैः देव्याः मण्डपः अलङ्कृतः अस्ति, अतः सः दृष्टॄणाम् इति वा भवति,
द्रष्टॄणां षष्टि बहुवचनं द्रष्टा। वयं जानीमः दृष्धातोः तृच् रूपम् इति वदामः, द्रष्टा इति वदामश्चेत् तस्य षष्टि बहुवचनरूपं द्रष्टॄणां दीर्घरूकारान्तम्।
अस्तु, मातॄणां पितॄणां द्रष्टॄणां सर्वेषां मनः आकर्षति, प्रथमं तत्र गच्छामः।
भगिनी भवती पठतु, शीघ्रं समापयामः।
सत्यं, तत्र गच्छाम, किञ्चित् कालं स्थित्वा पश्यामः। कुत्र? भवन्तं प्रदर्शिनी विषयं सः उक्तवान्
मम स्नेहिताः सर्वे दृष्टवन्तः ते माम् उक्तवन्तः परश्वः रविवासरः पठतु
परश्वः रविवासरः खलु यद इच्छन्ति पुनः गच्छाम इदानीम्
इत्युक्ते सम्भाषणम् अभवत् अधुना शीघ्रम् अत्र अस्मिन् सम्भाषणे किं दत्तमस्ति शीघ्रम् एकवारं पश्येम अत्र कार्तिक् महोदय भवान् किञ्चित् वदतु किमर्थं चेत् अत्र समयाभावः अस्ति अतः वयं शीघ्रं कुर्मः मिलित्वा सर्वे शृण्वन्तु अधुना अत्र किं किं दत्तमस्ति एकमेकं वाक्यं स्वीकृत्य वयं चिन्तनं कुर्मः अत्र तात इति अस्ति महोदय तस्य अर्थः कः
पिता इति अर्थः सम्बोधनपदम् अस्ति तात इति तात इत्युक्ते पुत्र इति अपि अर्थं भवितुं शक्यते परन्तु अत्र तात इत्युक्ते पिता
उत्तमं यदि वयं पिता इति पदं स्वीकृत्य वदामश्चेत् पिता शब्दस्य सम्बोधनरूपं किम् सम्बोधनरूपं पितः अत्र प्रथमं वाक्यम् अद्य प्रदर्शिनीं द्रष्टुं किं नगरं गच्छाम इति पुत्रः पितरं पृच्छति अत्र किं नगरं गच्छाम इति दत्तमस्ति अत्र गच्छामरूपं किम्
उत्तमपुरुष बहुवचनं लोट्लकार
लोट्लकार इत्युक्ते तत्र पिता पुत्रयोः सम्भाषणमस्ति पुत्रः पितरं पृच्छति तात अद्य प्रदर्शिनीं द्रष्टुं किं नगरं गच्छाम वयम् इति सः पुत्रः पृच्छति तदा पिता किं वदति
प्रदर्शिनीं कुत्र अस्ति इति पृच्छति पिता भवान् स्थलं जानाति वा कुत्र भवति इति जानाति वा इति पृच्छति
तदा पुत्रः वदति प्रदर्शिनीस्थलम् अहं जानामि गृहजनाः सर्वे गच्छाम इति पुत्रः वदति वयं सर्वे मिलित्वा गृहे यावन्तः जनाः सन्ति वयं सर्वे मिलित्वा प्रदर्शिनीं द्रष्टुं गच्छामः अद्य इति पुत्रः वदति तदा पिता किं वदति इतोपि
सार्धपञ्चवादने कार्यालयस्य कार्यं समापयित्वा अनन्तरं गच्छामः इति वदति
अधुना अहं कार्यालयं गच्छामि सायङ्काले सार्धपञ्चवादने अहं पुनः गृहं प्रत्यागच्छामि तदा वयं सर्वे मिलित्वा प्रदर्शिनीं द्रष्टुं गच्छामः सर्वे सिद्धाः भवन्तु सज्जाः भवन्तु इति पिता वदति अत्र तदानीम् एव मञ्जुला नाम्ना एका बालिका आगतवती सा किं पृच्छति सा किं वदति मञ्जुला इत्युक्ते अहं चिन्तयामि तस्य पुत्री मञ्जुला सा किं वदति
तात पश्यतु प्रदर्शिनी विविधवर्णरञ्जितैः दीपैः अलङ्कृता अस्ति तत्र भिन्नभिन्नवर्णैः दीपाः सन्ति तत्र
सन्ति प्रदर्शिनी कीदृशी अस्ति अलङ्कृता अस्ति कीदृशरीत्या अलङ्कृता अस्ति विविधवर्णरञ्जितैः दीपैः अलङ्कृता अस्ति अत्र प्रदर्शिनी इति पदस्य विशेषणम् अलङ्कृता इति अत्र अस्मिन् वाक्ये तृतीयान्तं रूपं किं महोदय
दीपैः इति अस्ति विविधवर्णरञ्जितैः उभयमपि तृतीयं
बहुवचनम् अत्र दीपैः इति पदस्य विशेषणं विविधवर्णरञ्जितैः इति पदम् अनन्तरम् अत्र पुत्रः वदति अन्तः गच्छामः पश्यतु दण्डैः विविधविन्यासं कृतवन्तः अस्मिन् वाक्ये तृतीयान्तं रूपं किं महोदय
दण्डैः
अत्र जनाः केचन जनाः दण्डैः विन्यासं कृतवन्तः अत्र विन्यासम् इति पदमस्ति अस्माकं कृते वदतु भवान् किम् अवगतवान् विविधविन्यासम् इत्युक्ते
some kind of tricks vinyasam some sequence of movements
matva ichchate te atra te sarve pradarshaniyam gatavantah pradarshanyam kim asti iti asmin va atra tatam asti pradarshanyam kechana janaah dandaihi vinyasam krutavantah apicha shala शलाकाभिः चित्राणि कृतवन्तः शलाका इति पदम् आकारान्त स्त्रीलिङ्गपदं शलाका इत्युक्ते किं महोदय अर्थः
अर्थः न जानामि शलाका
अत्र शलाका इत्युक्ते अहं चिन्तयामि तत्र ब्लाक् पेन्सिल् इति वदामः अत्र येन अत्र चित्राणि कर्तुं शक्नुमः अत्र चित्राणि कृतवन्तः कथं चित्राणि कृतवन्तः ते शलाकाभिः इत्युक्ते अत्र अर्धं दृष्ट्वा वाक्यं दृष्ट्वा वयम् अवगन्तुं शक्नुमः शलाका इत्युक्ते अत्र अत्र एकम् उपकरणं तेन वयं चित्राणि चित्राणि लेखितुं शक्नुमः शलाका इत्युक्ते अहं चिन्तयामि ब्लाक् कलर्ड् पेन्सिल् वा किमपि तेन चित्राणि रचयितुं शक्नुमः अपि च तत्र गच्छाम एका पाञ्चालिका तस्याः स्नेहितैः सह क्रीडति अत्र पाञ्चालिका इत्युक्ते किं महोदय
डाल्
डाल् पाञ्चालिका तस्याः स्नेहितैः सह क्रीडति तस्यां प्रदर्शन्याम् अत्र सर्वत्र प्रदर्शन्याः वर्णनमस्ति अत्र किं किं तत्र प्रदर्शन्याम् अस्ति इति तत्र दत्तमस्ति अतः अत्र स्नेहितैः सह अत्र एतदपि तृतीयान्तं बहुवचनरूपं सह इति पदम् उपपदतृतीया अपरां पश्यतु सखीभिः सह नृत्यति अन्या बालकैः युध्यति एतत् सर्वं वर्णनम् अत्र किं किम् अस्ति प्रदर्शन्याम् इति अस्ति अपि च इतोपि किमस्ति महोदय अग्रिमं वाक्यं भवान् पठतु
वत्स प्रदर्शिनीदर्शनार्थं वयं यत् आगतवन्तः तत् सार्थकम् अभवत् पर्पस् वि केम् फोर् हेस् बिन् फुल्फिल्ड् सार्थकं मीन्स् मीनिङ्ग्फुल् अभवत्
अभवत् इत्युक्ते वयम् अत्र किमर्थम् आगतवन्तः अत्र बहवः विषयाः सन्ति अत्र तान् सर्वान् वयं द्रष्टुं शक्नुमः अत्र बहवः विशेषाः सन्ति प्रदर्शन्याम् अतः अस्माकं कार्यं सार्थकम् अभवत् इति पिता वदति अपि च प्रदर्शिनी नूतन उपकरणैः सज्जीकृतवन्तः नूतनोपकरणैः रूपं किं महोदय
गुणसन्धिः तृतीया बहुवचनं
तृतीया बहुवचनं अत्र प्रथमान्तं रूपं किम्
उपकरणः नूतन उपकरणः
अहं चिन्तयामि उपकरणम् इति अहम्
उपकरणाः
ओ करणाः
अस्ति
इत्युक्ते अहं चिन्तयामि नपुंसकलिङ्गपदम् इति अहं चिन्तयामि उपकरणम् उपकरणानि
उपकरणानि अस्तु
अस्तु अत्र नूतन उपकरणे प्रदर्शिनी कीदृशरीत्या सज्जीकृता अस्ति इत्युक्ते नूतन उपकरणैः सज्जीकृता अत्र अस्मिन् वर्षे प्रदर्शिनी समीचीना अस्ति इति माता वदति अपि च मञ्जुला किं वदति
तत्र पश्यतु अम्ब देवीं सम्यक् अलङ्कृतवन्तः सन्ति तत्र एका देवी अस्ति देव्याः रूपं कथम् अस्ति इति वदति अहो अपूर्वं वर्णोपेतैः दीपैः अनेकाभिः मालाभिः डिफ्रेण्ट् गार्लेण्ड्स् पुष्पैः फ्लवर्स् फलैः वित् फ्रूट्स् विविधैः शाकैः डिफ्रेण्ट् वेजिटबल्स् देव्याः मण्डपः अलङ्कृतः अस्ति. द देवीस् मण्डप इस् डेकोरेटेड्. अतः सः द्रष्टॄणां सर्वेषां मनः आकर्षति. देर्फोर् दट् डेकोरेशन् इस् अट्राक्टिङ्ग् द मैण्ड् आफ् एव्रि वन् हू सीस् दट्. प्रथमं तत्र गच्छामः. लेट्स् गो देर् फस्ट्.
उत्तमम्. इत्युक्ते अत्र प्रथमं वाक्यं देवीं सम्यक् अलङ्कृतवन्तः. अत्र देव्याः प्रतिमा अस्ति, सा सम्यक् रीत्या अलङ्कृता अस्ति तत्र प्रदर्शन्याम्. अपि च वर्णोपेतैः दीपैः, अत्र वर्णोपेतैः दीपैः इति पदद्वयमपि तृतीया बहुवचनान्तरूपम् अस्ति. अनेकाभिः मालाभिः, अत्र मालाभिः इति पदस्य विशेषणम् अनेकाभिः. अत्र माला इति पदं स्त्रीलिङ्गपदम् इति कृत्वा तस्य तृतीयान्तं रूपं बहुवचनरूपं मालाभिः. अपि च पुष्पैः, पुष्पम् इति पदं नपुंसकलिङ्गपदं वयं जानीमः, तस्य तृतीयान्तं रूपं पुष्पैः. अपि च फलं, फलैः. अपि च शाकः इति पदमस्ति, शाकः इति पदस्य तृतीयान्तं रूपं शाकैः. अपि च विविध इति पदं तस्य विशेषणम् इति कृत्वा विविधैः शाकैः इति. इत्युक्ते अस्मिन् परिच्छेदे बहूनि पदानि तृतीयाविभक्तिबहुवचनान्तानि सन्ति. अस्माकम् अभ्यासः स एव. अतः अत्र अपि च देव्याः मण्डपः अलङ्कृतः अस्ति. अत्र वदतु महोदय, देव्याः रूपं किम्?
षष्टि एकवचनं.
उत्तमं. देव्याः मण्डपः अपि प्रदर्शन्याम् अस्ति, परन्तु सः मण्डपः उत्तमरीत्या अलङ्कृतः अस्ति, सुन्दरमस्ति. अतः सः द्रष्टॄणां सर्वेषां मनः आकर्षति. सः सुन्दररीत्या अलङ्कृतः अस्ति इति कृत्वा अत्र सर्वेषां ये जनाः तं मण्डपं पश्यन्ति तेषां मनः आकर्षति. अत्र महोदय, मनः इति पदमस्ति, तस्य रूपं किं, प्रातिपदिकं किं वदतु?
मनस् इति सकारान्तप्रातिपदिकं, नपुंसकलिङ्गम्, अत्र द्वितीयाविभक्त्याम् अस्ति. मनः इति एव प्रथमाविभक्ति, अपि च द्वितीयाविभक्त्याम् एकवचनरूपं भवति. अत्र द्वितीयाविभक्ति एकवचने अस्ति.
सुन्दरं, सुन्दरम्, उत्तमम्. अत्र द्रष्टॄणाम्, अत्र यथा भवान् उक्तवान्, मनः हलन्तपदं, सकारान्तपदम्, अपि च रूपाणि मनः, मनसि, मनांसि इति भवन्ति. अत्र द्रष्टॄणाम् इति पदमस्ति. द्रष्टा इत्युक्ते यः पश्यति सः द्रष्टा इति वदामः. अत्र द्रष्टा इति पदं तृच् प्रत्ययान्तरूपम् इति वदामः. दृष् धातोः तृच् रूपं द्रष्टा, परन्तु अत्र षष्टिबहुवचनरूपं दत्तमस्ति. इत्युक्ते अत्र इतोपि किम् अस्ति, कञ्चित् कालं स्थित्वा पश्यामः इति अस्ति. अत्र कञ्चित् किमर्थं महोदय, वदतु?
कञ्चिच्चनप्रयोगः इति अस्ति, अनिश्चयार्थक प्रयोगः. कम् इति द्वितीयाविभक्ति एकवचने, कं योगः चित् कञ्चित् इति भवति.
इत्युक्ते अत्र कालः इति पदं पुंलिङ्गपदं, तदर्थम् अत्र चित्चनप्रयोगः अपि पुंलिङ्गे अस्ति. यथा भवान् उक्तवान्, द्वितीया विभक्ति एकवचनम् अपि च पुंलिङ्गपदं. कञ्चित् कालं स्थित्वा पश्यामः, माता वदति इतोपि किञ्चित् कालम् अत्रैव स्थित्वा इतोपि प्रदर्शिनीं पश्यामः इति सा वदति. अपि च भवन्तं प्रदर्शिनीविषयं कः उक्तवान्, कः उक्तवान्, अत्र उत्तरं किं?
मम स्नेहिताः सर्वे दृष्टवन्तः, ते माम् उक्तवन्तः. पुत्रस्य स्नेहिताः उक्तवन्तः दृष्ट्वा.
इत्युक्ते पुत्रस्य स्नेहिताः उक्तवन्तः, अतः ते सर्वे अत्र प्रदर्शिनीं द्रष्टुम् आगतवन्तः. प्रदर्शिनी तु सम्यक् आसीत्, उत्तमा अस्ति. अतः अधुना पिता वदति परश्वः रविवासरः खलु, यदि इच्छन्ति पुनः आगच्छामः, परन्तु इदानीं गृहं गच्छामः इति पिता वदति. उत्तमम्. अधुना अत्र स्थगयामः. अग्रिमे सप्ताहे पुनः एकवारं मिलित्वा अभ्यासपुस्तके इतोपि अन्यान् विषयान् ज्ञास्यामः. सर्वेषां धन्यवादः, नमस्कारः.
धन्यवादः भगिनि.
धन्यवादः.
धन्यवादः भगिनि. नमस्कारः भगिनि.